ಕ್ಷಮಾಪೀಯ ಲೋಕೇ प्रहसन्निव भारत
अमुरा
ভোর মাঝে বিহিরান্ত মেদাওয়াচ
নাসতো বিদ্যতে
bhavo na bhavo vidyate sada
Thank you.
Yeah.
स्मरिहरी
न शोते तो मारसी
Ah!
अथ ते त्वमेमं धर्म्यं संग्रामं न करिष्यसि ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि कथयिष्यन्ति देव्ययाम्भावितस्य चाकीर्ते मरणादतिरिच्यते भयाद्रणादो परतौ मांस्यन्ते त्वा त्वं बहुमतो भूत्वा यास्य शिलाघव अवाच्य वादाश्च बहून् वरे शान्ति तवाहितान्तसवसामर्थ्यं ततो दुःखतरानुके नैवं पापमवाप्स्यसि Yeah. ने श्री गुण्यो भवाजुन निर्द्वान्द्वो नित्यसत्त्वस्तु निर्योगक्षेमात्मवान् पाने सर्वतः संप्लुतो दके आवान् सर्वेषु वेदेषु ब्राह्मणस्य विजानत कर्माण्येवाधिकारस्ते मा फले सुकदाचन मा कर्म फल हेतुर्भूर्माते संगो स्वकर्मणि योग सहकुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय सेध्य सेध्यो समो भूत्वा समात्वं योग उच्यते दूरेणाशवरं कर्म बुद्धियोगाद्धनञ्जय बुद्धौ शरणमन्वेत्थ कृपणाः फलहेतव बुद्धियुक्तो जहारिह उभे सुकृत दुष्कृते तस्माद्योगाय योज्यस्व योगः कर्म सुकौशलम् तस्माद्योगाय योज्यस्व कर्मजां बुद्धियोक्ता हि फलं त्यक्त्वा मनीषिणः बांधवे निर्मुक्ता पदं गच्छान्त्यनामय यदा ते मोहकलिलम् बुद्धिर्जतितरिष्यति तदागान्तासि निर्वेदम् श्रोतव्यस्य श्रोतस्य च श्रुते प्रतिपन्नाते यदा स्थास्यति निश्चला समाधावचला बोधे तदा योगमवाप्स्यसि अर्जुन उवाच पितप्रज्ञस्य का भाषा समाधेस्थस्य केशव तदि किं प्रभाषेत किमासीत व्रजेत किम् भगवान उवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् आत्मनातु स स्थित प्रज्ञ सरोच्यते दुःखे स्वनोद्विग्नमना सुखे सुविगत स्पृह वीतराग भय क्रोध सितधीर्मुनिरुच्य विद्यते सर्वत्रानविस्नेह सत्तत्प्राप्य शुभाशुभम् नाभिनन्दति न द्वेषी तस्य प्रज्ञा प्रतिष्ठिता यदा संहरते सायं कूर्मोऽङ्गानि सर्वशः तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारस्य देहिना रसवर्यं रसोऽप्यस्य परं दृष्ट्वा निवर्तते यततो ह्यपि कौन्तेय पुरुषस्य विपश्चिता इन्द्रियाणि प्रमाथिनि हरन्ति प्रसभं मनः तानि सर्वाणि संयम्य योक्त आसीत् मात्पर वशेहि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ध्यायतो विषयान् पुंस सङ्गस्तेषु उपजायते सञ्जायते कामा कामा क्रोधो भी जायते भवति सम्मोह सम्मोहास्मिति विभ्रम स्मृति भ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति रागद्वेषवियोक्तैस्तु विषयानेन्द्रियैस्तरान् आत्मावश्यैर्विधेयात्मा प्रसादमधिगच्छति प्रसादे सर्वदुःखानां हानिरस्योपजायते प्रसन्नते तसोषासु बुद्धे पर्यवते सते नास्ति बुद्धिरयोक्तस्य न चायोक्तस्य भावना न च भावयतः शान्ति रशान्तस्य कुतः सुखम् इन्द्रियाणामेतरताम् यन्मनो नु विधीयते परस्य हरते प्रज्ञां वायोर्नावमेवाम्भसि तस्माद्यस्य महाबाहो निगृहीतानि सर्वश स्पश्य प्रज्ञा प्रतिष्ठिता याने सर्वभूतानां तस्यां जागर्ति सायामि
याने सर्वभूतानां
यस्यां जागर्ति भूतानि सा निशा पश्यतो मुने प्रदेशं समुद्रमाप प्रवेशन्ति यद्वत् कामायं प्रविशन्ति सर्वे सशान्तिमाप्नोति न कामकामी विहाय कामान्यः सर्वान् पुमांस्तरति नेस्रियः निर्ममो निरहङ्कार शान्तिमधिगच्छति एष ब्राह्मे स्थिते पार्थ नैनां प्राप्य विमोह्यति हे त्वा श्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ब्रह्मनिर्वाणमृच्छति
तत्सत् श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्याय हरि ओम् तत्सत् हरि ओम् तत्सत् हरि ओम् तत्सत्